Chapter 2 Bhagavad Gita by RJHS students.
Atha Dviti Odhyayah Sanjaya Uvacha Tam Tata Kripaya Vrishta Shastru Purna Kulikshana Vishedanta Jitam Vakya Uvacha Madhusudana Shri Bhagavan Uvacha Yeah. सहस्राणि नयति पावक न चैनं वेदयन्तापो न शोषयति मारुता अचेद्योऽयमदायोऽयम् अकृत्यो शोष्य एव च नित्य सर्वगतः साधु अचलोऽयं सनातन अव्यक्तोऽयमचिन्त्योऽयम् अहेकारोऽयमुच्यते तस्मादेव
Yeah.
उपेशो कृत दुष्कृते तस्माद् योग योजस्व योग कर्म सुकौशलम् कर्म जम्बुद्धयुक्ताये फलं त्यक्त्वा मनीषिणा जन्म बन्धव निर्मुक्ता पदं गच्छन्ति नामयम्
यदा ते
मोहपरिदां बुद्धिरति करिष्यते तदा गन्तासि निर्वेदम् श्रोतव्यस्य श्रुतस्य च श्रुतिप्रतिपन्नाते यदा स्तस्य स्थितिश्चलः समाधौ वचना बुद्धे
तदा योगम् अवाप्स्यसि
पुरुषस्य विपश्चिता इन्द्रियाणि प्रमातीनि हरन्ति प्रसभं मनः तानि सर्वाणि संयम्य युक्त आसीत् मत्परा वशे यस्येन्द्रियाणि तस्य प्रज्ञा प्रतिष्ठिता जायतो विषयान् पुंसा सङ्गस्तेषोपजायते सङ्गासञ्जायते कामा शान्तस्य कृतः सुखम् इन्द्रियाणां विचरतां ब्रह्मनो नु विधीयते
निर्ममो
निरहङ्कारा सशान्ते मदि गच्छति